इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमंत्री नरेन्द्र मोदी अद्य बिहारस्य जमुई इत्यत्र 600-600 कोटितोप्यधिकरूप्यकाणां विभिन्नानां विकासात्मक परियोजनानां उद्घाटनम् आधारशिलां च स्थापितवान्। प्रधानमंत्री नरेन्द्र मोदी अद्य सायंकाले नवदिल्ली नगरे प्रथमस्य बोडोलैंड महोत्सवस्य उद्घाटनं करिष्यति। केन्द्रीय गृहमंत्री अमित शाह अद्य नवदिल्ली नगरस्य वानसेरा पार्क इत्यस्मिन् स्थाने भगवतः बिरसा मुंडा इत्यस्य प्रतिमायाः अनावरणं कृतवान्। गुरुनानक जयन्त्युत्सवः गुरुपूरव इति पर्व आदेशे धार्मिकोत्साहेन परिपाल्यते। अपि च झारखण्डे द्वितीय चरणाय महाराष्ट्रे च नैर्वाचनिक प्रचाराभियानं सजवं प्रवर्तते। अथ वार्ताः विस्तरेण। प्रधानमंत्री नरेन्द्र मोदी अद्य सायंकाले नवदिल्ली नगरे प्रथमस्य बोडोलैंड महोत्सवस्य उद्घाटनं करिष्यति। द्विदिवसीयः अयं महोत्सवः शान्तिं स्थापयितुं बोडो समाजस्य निर्माणार्थं च भाषा साहित्य संस्कृतेः च विषये एकः महत् कार्यक्रमः अस्ति। प्रधानमंत्री कार्यालयेन विज्ञप्तौ उक्तं यत् महोत्सवस्य उद्देश्यं न केवलं बोडोलैंड प्रदेशे अपितु असमयस्य अन्येषु भागेषु पश्चिमबंगस्य नेपालस्य पूर्वोत्तरस्य अन्येषु अन्ताराष्ट्रिय सीमाक्षेत्रेषु च निवसन्तः आदिवासिनः बोडोजनान् एकीकृत्य संस्थापनं वर्तते। महोत्सवस्य विषयः समृद्ध भारतस्य शान्तिः सौहार्दं च इति वर्तते। गुरुनानक जयन्त्योत्सवः गुरुपूरव इति पर्व आदेशे धार्मिकोत्साहेन परिपाल्यते। समग्रे देशे विश्वस्मिन् च गुरुनानक जयन्त्योत्सवः गुरुपूरव इति पर्व आदेशे धार्मिकोत्साहेन परिपाल्यते। दिवसोऽयं प्रथमस्य सिख गुरोः गुरुनानक देवस्य प्राकट्योत्सवत्वेन आमान्यते। सः सिख धर्मस्य स्थापनां कृतवान्। अस्मिन् वर्षे श्री गुरुनानक देवस्य 55-500 जन्मजयन्ती भक्तैः परिपाल्यते। सम्पूर्णे विश्वेस्मिन् अस्मिन् दिने सिख भक्ताः प्रातःकाले शोभायात्राभिः दिवसस्य आरम्भं कुर्वन्ति। गुरुद्वारा इत्येतेषु प्रार्थनाः आयोज्यन्ते। सामुदायिक पाकशालाः गुरुनानकस्य समानता सेवा करुणा चेति शिक्षाणाम् अभिव्यक्तिरूपेण सहस्रशो जनानां कृते भोजनस्य व्यवस्थां कुर्वन्ति। पंजाबप्रदेशे अमृतसरस्य श्रीहरिमन्दिरसाहबस्य इत्यस्मिन् स्थाने तथा च राज्यस्य अन्येषु गुरुद्वारा इत्येतेषु शतशो भक्ताः प्रार्थना नमस्कारान् कुर्वन्ति। अस्मिन् अवसरे राष्ट्रपतिः उपराष्ट्रपतिः प्रधानमन्त्री च जनान् अभिनन्दितवन्तः। अयं दिवसः कार्तिकपूर्णिमा इति पर्वत्वेन अपि आचर्यते। दिने अस्मिन् नैके भक्ताः श्रद्धालवः पवित्रनदीषु स्नानं कुर्वन्ति। झारखण्डे द्वितीयचरणाय महाराष्ट्रे च नैर्वाचनिक प्रचाराभियानं सजवं प्रवर्तते। प्रमुखदलानां शीर्षनेतारः मतदानात् प्राक् मतदातृन् स्वपक्षे मतदानं कर्तुं दृढान् प्रयत्नान् कुर्वन्तः वर्तन्ते। धनबादस्य तुण्डीनगरे नैर्वाचनिकसभां सम्बोधयन् भाजपादलस्य वरिष्ठनेता तथा च केन्द्रीयो मन्त्री राजनाथसिंहः राज्ये प्रचण्डभ्रष्टाचाराय झारखण्डमुक्तिमोर्चादलस्य मुख्यमन्त्रिणः हेमन्तसोरेनस्य आलोचनां कृतवान्। भाजपा वरिष्ठ नेतारः झारखण्ड शिवराज सिंह चौहानः हेमंत विश्व शर्मा चंपई सोरेनः च डुमका पाकुर जामा नगरेषु सभाः संबोधितवन्तः। गोड्डा नगरे जनसभायां कांग्रेस दलस्य वरिष्ठ नेता राहुल गांधी प्रतिज्ञां कृतवान् यत् यदि INDIA इति गठबंधनं सत्तां प्राप्स्यति तर्हि दलद्वारा कृताः सर्वाः प्रतिज्ञाः पूर्णाः भविष्यन्ति। इतरथा देवघरे सभायां राजद दलस्य वरिष्ठ नेता तेजस्वी प्रसाद यादव उक्तवान यत् भाजपा दलं धार्मिक जाति पंक्तौ समाजस्य विभाजनं करोति। अजसु पक्षस्य वामपक्षीय दलानां च नेतारः अपि सक्रिय रूपेण प्रचारं कुर्वन्ति। राज्यस्य विभिन्नेषु भागेषु सभाः रोड शो इति कुर्वन्ति। द्वितीय चरणे झारखण्डे अस्मिन् मासे 20 दिनांके 38 आसनानां कृते मतदानं भविष्यति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। S&P ग्लोबल इत्यनेन भारतस्य सकल राष्ट्रिय उत्पाद प्रतिशततायां 27.5% वर्षं यावत् आगामिषु वित्तवर्षेषु प्रतिवर्षं 6.5-7% वृद्धिः भविष्यति इति अनुमानितमस्ति। S&P ग्लोबल रेटिंग्स इत्यनेन नवीनतम प्रतिवेदने उक्तं यत् संचार आत्मक परिष्काराः उत्तमाः आर्थिकाश्च सम्भावनाः भारतस्य वित्तीय संस्थानां तन्यतायाः समर्थनं करिष्यन्ति। संस्थायाः स्वस्य वैश्विक वित्त कोष दृढ़ कोण प्रतिवेदने प्रकाशितं यत् महार्घता वृद्धयः सह सशक्त वित्त कोष द्रव्य वर्धनेन सह ऋणदानम् अपि वर्धनीयम्। श्रीलंकादेशस्य सत्ताधारी राष्ट्रिय जनशक्ति दलम् NPP इति निर्वाचने विजयं प्राप्तवत्। 25.2% निर्वाचने बहुमतस्य अंकं पारं कृत्वा दलेन अनेन वैजयन्तीं प्राप्ताः। अद्यावधि 79.1% कृते घोषितपरिणामानां मध्ये वामपक्षीयसंघटनेन 41.1% आसनानि विजितानि सन्ति। अन्येषां कृते मतगणना अधुनापि प्रवर्तते। साजिथ प्रेमदासस्य नेतृत्वे मुख्य विपक्षेण अद्यावधि 35 आसनानि विजितानि। इलंकाई तमिल अरसु कंची दलेन 7 आसनानि विजितानि। केन्द्रीय शिक्षा मंत्री धर्मेन्द्र प्रधानेन अद्य छात्राणां कृते शून्य त्रुटि प्रवेश परीक्षा व्यवस्थायाः सर्वकारस्य प्रतिबद्धतायाः पुनः पुष्टि कृता। दक्षिणे तेलंगाना राज्ये हैदराबाद नगरे इंडियन स्कूल ऑफ बिजनेस ISB इत्यनेन आयोजितस्य द्वितीयस्य अन्वेषण मंचस्य पार्श्वे वार्ताहरैः सह संवादे प्रधानमहोदयः अवदत् यत् डॉक्टर राधाकृष्ण समित्या अनुशंसितस्य बहुआयामी परिष्काराः सम्प्रति सन्ति वीक्षाधीनाः। सः अवदत् यत् ISB इत्यादिभिः संस्थाभिः कृतं शोधकार्यं सार्वजनिक नीति निर्माणे सहायकं भविष्यति तथा च विभिन्नस्तरेषु शासनस्य सहायतां करिष्यति। ततः पूर्वं मन्त्री ISB परिष्कारे वार्षिक संशोधन प्रदर्शनस्य द्वितीय संस्करणस्य उद्घाटनं कृतवान्। केन्द्रीय गृहमन्त्री अमितशाह अद्य नवदिल्लीनगरस्य वानसेरा पार्क इत्यस्मिन् स्थाने भगवतः बिरसा मुण्डा इत्यस्य प्रतिमायाः अनावरणं कृतवान्, यत्र हि महतः स्वतन्त्रसेनानीनां सम्मानं कृतम्। आयोजने श्रीशाहः उक्तवान् यत् भगवान् बिरसा मुण्डा राष्ट्राय स्वकीयम् अपारं योगदानं कृतवान्। सः एवमपि अवदत् यत् बिरसा मुण्डा इत्यनेन आदिवासी समुदायेषु जलस्य, भूमेः, वनानां च महत्वस्य विषये जागरूकता उत्पादिता। गृहमन्त्री उक्तवान् यत् नरेन्द्रमोदी सर्वकारः आदिवासी क्षेत्राणां विकासाय, आदिवासी जनानां उत्थानाय च विशेषरीत्या कार्यं कुर्वन् अस्ति इति वार्ताः।